ഗണപതികും ഹവാമഹേ കവിം കവീനാമുപമശ്രവസ്തമം ജ്യേഷ്ഠരാജം ബ്രഹ്മണാം ബ്രഹ്മണസ്പദ ആന ശൃണ്വന്നോതിഭിഃ സേദസാദനം പ്രണോതി വീ സരസ്വതീ വാചേഭിർവാജിനീവതി ദീനാമവിത്രിയവതു ഗണേശായ നമഃ സരസ്വത്യൈ നമഃ ശ്രീഗുരുഭ്യോ നമഃ ഹരിഃ ഓം ഓം നമോ ഭഗവതേ രുദ്രായ ഓം നമസ്തേ രുദ്രമന്യവ ഉതോത ഇഷവേ നമഃ നമസ്തേ അസ്തു ധന്വനേ പാഹുവ്യാമുതതേ നമഃ യാത ഇഷു ശിവതമാ ശിവം ബഭൂവ തേ ധനുഃ ശിവാശരവ്യാതവതയാനോ രുദ്രമൃടയാ യാതേ രുദ്ര ശിവാ തനുരഘോര പാപകാശിനീ തയാനസ്തനു വാശന്തമയാ ഗിരിശം താഭിചാകശീ യാമിഷും ഗിരിശം തഹസ്തേ ബിഭശസ്തവേ ശിവാം ഗിരിത്രതാം കുരുമായികും ശ്രീ പുരുഷം ജഗത് ശിവേന വചസാ ത്വാ ഗിരിശാച്ചാവദാമസി യതാനഃ സർവമിജ്ജഗത യക്ഷ്മഗും സുമനാസത് അദ്യ വോചദതി വക്താ പ്രഥമോ ദൈവ്യോഭിഷക് അഹേകശ്ച സർവാഃ ജംഭയന് സർവാഃ യാതു ധാന്യഃ അസൌ യസ്താമ്രോ അരുണ ഉത ബപ്ലസ്സു മംഗളഃ യേ ചേമാഗും രുദ്രാ അവിതോ ദിക്ഷുശ്രുതാ സഹസ്രശോ വൈശാഗും ഹേഡഹേമഹേ അസവ്യോ വസർപ്പതി നീലഗ്രീവോ വിലോഹിതഃ ഉതൈനം ഗോപാ അദൃശൻ അദൃശന്നുദഹാര്യഃ ഉതൈനം വിശ്വാ ഭൂതാനി സദൃഷ്ടോ മൃഡയാതിനഃ നമോ അസ്തു നീലഗ്രീവായ സഹസ്രാക്ഷായ മീഢുഷേ അതോ യേ അസ്യ സത്വാ നോഹം തേഭ്യോ കരണമഃ പ്രമുഞ്ച ധന്വനസ്ത്വമുഭയോരാഗ്നിയോർജ യാശ്ച തേ ഹസ്ത ഇശവഃ പരാതാ ഭഗവോ വപ അവതത്യ ധനുസ്വഗും സഹസ്രാക്ഷശതേഷുധേ നിശീര്യ ശല്യാനാമുഖാ ശിവോ നഃ സുമനാഭവ വിജ്യം ധനുഃ കപർദിനോ വിശല്യോ ബാണവാഗും ഉത അനേശന്നേശവ ആഭുരസ്യ നിഷംഗതിഃ യാതേ ഹേതിർമീഢുഷ്ടമഹസ്തേ ബഭൂവതേ ധനുഃ തയാസ്മാൻ വിശ്വതസ്ത്വമയക്ഷ്മയാ പരിഭുജാ നമസ്തേ അസ്വായുധായ നാതതായ ധൃഷ്ടവേ ഉഭാവ്യാമുതതേ നമോ ബാഹുവ്യാം തവ ധന്വനേ പരിതേ ധന്വനോ ഹേതിരസ്മാൻ വൃണക്തു വിശ്വതഃ അഥോ യ ഇഷുതിസ്സവാരേ അസ്മന്നിദേഹിതം നമസ്തേ അസ്തു ഭഗവന് വിശ്വേശ്വരായ മഹാദേവായ ത്രയംബകായ ത്രിപുരാന്തകായ ಮಾತೃಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸಸ್ಮಿಂಜರಾಯ ತ್ವಿಷೀಮತೇ ಪಥೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಭ್ರುಷಾಯ ವಿವ್ಯಾಧಿನೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯಾತ ಕಾವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸ್ಥಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವಕ್ರಸಾಯ ಔಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೆ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಕೃಷ್ಣವೀತಾಯ ಧಾವತೆ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಷಂಗಿಣ ಇಷು ಧಿಮತೆ ತಸ್ಕರಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ವಂಚತೆ ಪರಿವಂಚತೆ ತಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಶೃಕಾವಿಭ್ಯೋ ಜಿಘಾಗುಂ ಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರಭ್ಯ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಇಷು ಮದ್ಭ್ಯೋ ಧನ್ವಾಮಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆತನ್ವಾಣೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯಶ್ಚ ಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ವ ಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಿಷ್ಠದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸಭಾಭ್ಯಶ್ಚ ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತೃಗುಂ ಹತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾರೇಭ್ಯಃ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो दन्वकृत्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम श्वभ्य श्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मीढुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृत्ताय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः कूर्म्याय चावस्वन्याय च नमः श्रोतस्याय च वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः शोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमस्तीक्ष्णेशवे चायुधिने च नमस्वायुधाय च सुधन्वने च नमः श्रुत्याय च पक्याय च नमः कात्याय च नीप्याय च नमः शूद्याय च सरस्याय च नमो नात्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेद्याय च विद्युत्याय च नमः ईक्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तेत्याय च गोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च पेण्याय च नमः श्रीकत्याय च प्रभाह्याय च नम इदिन्याय च प्रपत्याय च नमः किगुंशिलाय च शयनाय च नमः कपर्दिने च पुरस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः కాట్యాయ చ గవ్వరేష్టాయ చ నమో హృదయాయ చ నివేష్ప్యాయ చ నమః పాగుం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలభ్యాయ చ నమః ఊర్యాయ చ సూర్మ్యాయ చ నమః పన్యాయ చ పర్ణశద్యాయ చ నమో పగుణమానాయ చ విగ్ధతే చ నమః ఆఖ్యనతే చ ప్రఖ్యనతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంతసస్పతే దరిద్రన్నీలలోహితాం పురుషాణామేషాం పశూనాం మావేర్మారోమో యేషాం కించ నామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాభేషజీ శివా రుద్రస్య భేషజీ తయానో మృడ జీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రమరామహే మతిం యథానశ్రమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రో తనో వయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యజ్ఞం చయోశ్చ మనురాయ జే పితా తదశ్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్థకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామాన సనువో రుద్రరీరిషః మానస్తోకేతన ఏమాన ఆయుషిమానో గోషుమానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభావితో వదేర్హవిష్మంతో నమసా విధేమతే ఆరాతే గోగ్ర ఉత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తు రక్షాచనో అధి చ దేవ ప్రూయథాచన శర్మ యచ్చ ద్విబరా సుహిశ్రుతం గర్త సదం యువానం మృగన్న భీమముపహత్తుముగ్రం మృడాచరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతివృణక్తు పరిత్వేషస్య దుర్మతిరగాయో అవస్థిరా మగవద్యస్తనుష్వమీడుస్తూకాయ తనయాయ మృడయా మీడుష్టమశివతమశివో నస్తుమనా భవ రమే వృక్ష ఆయుధం నిదాయ కృత్యం వసాన ఆచర పినాకం విప్రదాగహే వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం ఏతయో న్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతి సహస్రాణి సహస్రశూయే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వారి దన్మసే అస్మిన్మహత్యన్నవేంతరిక్షే భవ అధి నీలగ్రీవాశిగంఠా శర్వా అధః క్షమాచరాః నీలగ్రీవాశిగంఠా దివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు తస్మిన్ జరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసక్కపర్తినః యే అన్యేషు వివిద్యంతి పాత్రేషు వివతో జనాన్ యే పతాం పతిరక్షయ ఐలభృదాయ వ్యుదః యే తీర్థాని ప్రచరంత శృకావంతో నిషంగిణః य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसहस्रयो जने वदन्वानि धन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रदेशीर्गजोदेशीर्गजोध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाचा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु ह्यश्वशुः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वमे सजो यगुम् शिवाभिवर्षनः शान्ति शान्ति शान्तिः ॐ अग्ना विष्णु सजोषसेवा वर्धन्तु वाम् गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनूश्च मे चर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जयेष्ट्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे महश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे भस्मा च मे द्राघुर्या च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्रिशिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियम् च मेनु कामश्च मे कामश्च मे सोमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञा गात्रम् च मे सोश्च मे प्रसोश्च मे शेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओक्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जयेत्रम् च मौद्भिद्यम् च मे भ्रयश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेऽन्नम् च मे क्षुश्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे त्रिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मधुराश्च मे प्रियङ्गवश्च मे णवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्चम् च मे कृष्टपच्च च्चम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च मगेमश्च मगितिश्च मे गतिश्च मे अग्निश्च मगिन्द्रश्च मे सोमश्च मगिन्द्रश्च मे सविता च मगिन्द्रश्च मे सरस्वती च मगिन्द्रश्च मे पूषा च मगिन्द्रश्च मे बृहस्पतिश्च मगिन्द्रश्च मे मित्रश्च मगिन्द्रश्च मे वरुणश्च मगिन्द्रश्च मे त्वष्टा च मगिन्द्रश्च मे धाता च मगिन्द्रश्च मे विष्णुश्च मगिन्द्रश्च मे श्विनौ च मगिन्द्रश्च मे मरुतश्च मगिन्द्रश्च मे विश्वे च मे देवागिन्द्रश्च मे पृथिवी च मगिन्द्रश्च मेऽन्तरिक्षम् च मगिन्द्रश्च मे द्यौश्च मगिन्द्रश्च मे दिशश्च मगिन्द्रश्च मे मूर्धा च मगिन्द्रश्च मे प्रजापतिश्च मगिन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे धाभ्यश्च मेऽधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रा वरुणश्च म आश्विनश्च मे प्रति प्रस्थानश्च मे शुक्रश्च मे मन्धे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुद्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इत्मस्य मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृशश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेर्द्रं च मे हविर्दानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वपृतश्च मे सुखाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरे रङ्गुलयो दिशश्च मे यज्ञेन कल्पं तावृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुत् ऋतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रतं तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्योही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्योही च मे पष्टवाच्च मे पष्टोही च म उक्षा च मे वशा च ऋषभश्च मे देहश्च मे नड्वांश्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मगेकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च मगेकत्रिगुं ंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्त्रश्च मे चौश मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मेवाचश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नीयस्यान्त्यायनत्यान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादे बहुर्मनुर्यज्ञनिर्बृहस्पतिरुग्धा मदानि शगुंशिषद्विश्वे देवासूक्तवा च पृथिवीमातर्मामाभिगुंशेर्मधुमरिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमदीम् देवेभ्यो वाचमुद्यादगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः
चय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये
दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद् सभोमिम् विश्वतो वृत्वा अत्यधिष्ठद्वशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उताम्रतत्त्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यावृतम् दिवे त्रिपादोर्ध्वउदेत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्मात् विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इत्मः शरद्धवे सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवाय यज्ञम् तन्वानाः अभद्रम् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमकृतः तेन देवायजन्त साध्या ऋषयश्च ये तस्मात् यज्ञात् सर्वभूतः संवृतम् वृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्मात् यज्ञात् सर्वभूतः ऋचसामानि जग्निरे चन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोपयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददो कदिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः ऊरो तदस्य यद्वैष्यः पद्यागुम् शूद्रो अजायत चन्द्रमावनतो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रेष्ठोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा जहारा शक्र प्रविद्वान् प्रदिशस्यतस्वः तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिवेरताश विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्यातपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ऋष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्मृतः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णे विश्रुणुयामदेवाः भद्रम् पश्ये मार्षभिर्यजत्राः स्थिरैरङ्गैस्तु वागुंसस्तनोभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः नमोऽस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् दर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ऋतम् वच्मि सत्यम् वच्मि अवत्वम् माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवालोचानवशिष्यम् अवपश्चात् अवपुरस्तात् अवोत्तरात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् तत्त्वो जायते सर्वम् जगदिदम् तत्त्वत्तिष्ठति सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येते त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वाक्पदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनो ध्यायन्ति नित्यम् त्वम् ब्रह्मास्त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्मभूर्भुवस्वरो गणादिम् पूर्वमुच्चार्य वर्णादीम् तदनन्तरम् अनुस्वारः परतरः अतेन्दुलसितम् तारेण लुब्धम् एतत्तव मनुस्वरूपम् गकारपूर्वरूपम् अकारोऽद्यवरूपम् अनुस्वारश्चान्द्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम् सगुंहिता सन्धिरे सैषा गणेश विद्या गणक ऋषिः निश्रुद्गायत्री छन्दः गणपतिर्देवता ॐ गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशवारिणम् रथम् चवरणम् हस्तेर्विभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृते पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदधर्मशीर्षम् योधीते स ब्रह्म भूयाय कल्पते स्वसर्वविघ्नैर्न बाध्यते स्वसर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयते प्रातरधीयानो रात्रिकृतम् पापम् नाशयते सायम् प्रातः प्रयञ्जानो पापो पापो भवति सर्वत्र दीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमधर्वशीर्षमशिष्याय न देयम् यो यदि मोहात् दास्यति स पापीयान् भवति सहस्रावर्तनाद्यम् यम् काममधीते तम् दमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्यामनश्चपति सविद्यावान् भवति इत्यधर्मणवाक्यम् ब्रह्माद्यावरणम् विद्या न विभेदि कदाचनेति यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साजत्समिद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणा सम्यक् ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्याम् प्रतिमा सन्निधौ वा जप्त सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेद इत्युपनिषत् भद्रम् कर्णे विश्रुणुयाम देवाः भद्रम् पश्ये मार्च्यभिर्यजत्राः स्थिरैरङ्गैर्सुष्टुवागम् तत्सनोभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्ति शान्ति शान्तिः नुकम् वीर्याणि प्रवोचम् यः पार्थिवानि विममे रजागुंसि यो अस्कब यदुत्तरगुम् सदस्तम् विचक्रमाणस्त्रेदोरुगायः विष्णोरराटमसि विष्णो पृष्ठमसि विष्णो स्तो विष्णो स्यूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपातो अस्याम् नरो यत्र देवयवो मदन्ति पुरुक्रमस्य स हि बन्धुरित्था विष्णो पदे परमे मध्व उत्सह प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः यस्योरिषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवा वृधाना न ते महित्वमन्वष्णुवन्ति उभे ते विद्म रजसे पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे पृथिवीमेष एता क्षेत्राय विष्णुर्मनुषे दशस्यन् द्रिवासो अस्य कीलयोजना सह उरुक्षितिगुम् सुजनिमाचकार त्रिद्देव पृथिवीमेष एता विचक्रमे च तच्च सम्महित्वा प्रविष्णुरस्तु तव तस्तवीयान् त्वेषगृह्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समोढमस्य पागुम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपादाभ्यः ततो धर्माणि धारयन् विष्णो कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा त
तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवीव चक्षुरातम्
तद्विप्रासो विपन्यवो जाग्रुवागुम् सत्समिन्दते
विष्णोर्यत्परमम् पदम्
पर्यात् स अनन्तरायाय सर्वस्तो मोतिरात्र उत्तममहद्भवति सर्वस्यात्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वम् जयति ॐ
शान्ति
शान्ति
शान्तिः
अग्निर्मे वाच श्रितः वाक्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिस्मृतः चक्षुर्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि स्मृतः मनोहृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रिताः शरीरगुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि ओषधिवनस्पतयो मे लोमसु श्रिताः लोमानि हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि ईदो मे बले स्थितः बलगुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्नि स्थितः मूर्ध्वा हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि आत्मा म आत्मनि श्रितः आत्मा हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोमाः राजाधिराजाय प्रसक्य साहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम्।
समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः